सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र लक्षणम् इति, लक्षणवाक्यानां परिशीलनं. तत्र पञ्चभूतानां लक्षणवाक्यानि ते कथं सन्ति इति विचारः. तत्र पृथिव्याः लक्षणवाक्यं वयं पठितवन्तः. तदनन्तरं तत्र विशेषण विशेष्यभावस्य विषये करपत्रं पठितवन्तः. इदानीं तत्र करपत्रे मूलसन्देशः आसीत् नाम तत्र गन्धः, गन्धवती पृथिवी नाम तत्र गन्धः पृथिव्याः लक्षणं वा अथवा गन्धवत्वं पृथिव्याः लक्षणं वा द्वयमपि साधु इति. तत्र पक्षद्वयमासीत्. एकः पक्षः तत्र गन्धः नाम गन्धवत्वम् इत्युक्ते तत्र गन्धः इति एकः पक्षः, अन्यः पक्षः आसीत् तत्र गन्धः अपि गन्धवत्वं भिन्नः इति द्वितीयपक्षः. यद् किमपि भवतु किन्तु तत्र लक्षणं लक्ष्ये अस्ति इति तत्र जातम् इति करपत्रे वयं पठितवन्तः. इदानीं तत्र अग्रे सरामः. किन्तु तत्र करपत्रस्य उपयोगः कः इति अवगमनार्थम् इदानीं तत्र पुनः तत्र किञ्चित् पूर्वं यद् अस्ति ततः पठामः अद्य. तर्हि तत्र प्रेमलता भगिनी भवती तत्र आरम्भं करोति वा? तत्र पुटसङ्ख्या अस्ति 40. गन्धवती पृथ्वी, गन्धवत्वं पृथ्वीलक्षणम् इत्यनयोः भेदनिरूपणम् इति. तत्र इदानीं तत्र विद्याधरीपुस्तकमेव.
महोदय, गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणम् इत्यनयो भेदनिरूपणम् इति बिन्दुः अस्ति. उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधारादेयभावः इति. तथा जलस्थले शीतस्पर्शः अपां लक्षणमिति, अत्रापि शीतस्पर्शः आदेयः, अपो जलम् अधिकरणम्. शीतस्पर्शे आदेयता, तन्निरूपिता अधिकरणता जले, अधिकरणताश्रयः जलम्, अधिकरणाश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वय इत्युच्यते.
एतत् वयं पूर्वं दृष्टवन्तः. वदतु भगिनि.
गन्धवत्वं गन्धः इति समाना एव अर्थः भवति इति एतत् सारांशत्वेन एतत् बिन्दु वदति.
लक्षणवाक्यद्वयमस्ति भगिनि, नाम एकमस्ति तत्र
गन्धवती पृथिवी इति वाक्यं, गन्धवत्वं पृथिव्या लक्षणम् इति अन्यद्वाक्यमस्ति.
अतः तयोः मध्ये कः भेदः इति.
गन्धवती पृथिवी इत्यस्मिन् गन्धवती इति गुणी कः इति न वदति अत्र. गन्धवत्वं पृथिव्यां गन्धवत्वम् इति उच्यते चेत् पृथिव्याः लक्षणमिति स्पष्टेन भवति अत्र एव एतद् वाक्येन. गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्येन गन्धः गुणः अस्ति, लक्ष्ये एव अस्ति इति स्पष्टं भवति.
स्पष्टं भवतु, समीचीनं भगिनि. हा, तदेव अस्ति. नाम अस्माकं तत्र लक्षणम् इति यदा चिन्तितवन्तः तत्र लक्षणं लक्ष्ये भवेत् इति आसीत्. हा, अतः तत्र लक्षणं लक्ष्ये अस्ति इति तत्र यदि स्पष्टता अस्ति चेत् तदा समीचीनं भवति. अतः तत्र समन्वयः अस्ति यदा स्पष्टं समन्वयः
नाम लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णितं तत् समन्वयः
नाम तत्र स्पष्टमस्ति तत्र गन्धवत्वं पृथिव्याः लक्षणं गन्धवत्वं पृथिव्याम् अस्ति इति स्पष्टता अस्ति चेत् अस्तु तत्र समन्वयः अस्ति लक्षणम् इति एतद् लक्षणम् इति वक्तुं शक्नुमः इति यतोहि स्पष्टमस्ति लक्षणं लक्ष्ये अस्ति इति हा अतः तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति एव तत्र वयं इच्छामः तदेव तत्र दत्तमस्ति इति पूर्वं पठितवन्तः
नैयायिकाः एतदेव इच्छति लक्षणं
इति सत्यम् इति समीचीनं किन्तु तत्र गन्धवती पृथ्वी इत्येव तत्र तर्कसङ्ग्रहे मूलवाक्ये तत्र मूलग्रन्थे तर्कसङ्ग्रहे गन्धवती पृथ्वी इति एव दत्तं किन्तु नैयायिकानां इच्छा अस्ति गन्धवत्वा पृथिव्याः
पृथिव्याः लक्षणम् इति वाक्यं नैयायिकानाम् इच्छन्ति
हा ते इच्छन्ति समीचीनं हा तथैव अस्ति अस्तु अतः तत्र एतत् केवलं तत्र भूमिका पुनः तत्र विद्याधरी पुस्तके यदस्ति तत् अतः तत्र किञ्चित् पठामश्चेत् तत्र काण्टेक्स्ट् किमस्ति इति वयं सर्वे अवगच्छामः अतः अग्रे सर्तुं शक्नुमः इति अतः एतत् पठामः अस्तु तत्र नूतनतया के आगतवन्तः नरसिंहमहोदय नमस्कारः धनश्री भगिनी नमस्कारः नमस्कारः पुटसङ्ख्या अस्ति 40 चत्वारिंशत् अस्तु तर्हि अग्रे
अग्रे पठ
अस्तु पठतु भगिनि अग्रेपि पठतु
परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादिलक्षणवाक्यानि लौकिकव्यवहार इव भवन्ति यथा शासनाधिमुक्ति गौः इति लौकिकवाक्यव्यवहारः यथा वा नीलो घटः इति व्यवहारः परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं स्व तल तल् आदि भाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठी प्रयुञ्जते यथा गन्धवत्वं इति व्याह लक्षणमिति अत्र एतदेव उक्तं सङ्ग्रहग्रन्थे गन्धवती पृथिवी इति भवति शीतस्पर्शवत्य आपः इति लक्षणवाक्यानि इति भवन्ति एतत् वाक्यानि लौकिकव्यवहारः इति इव दृश्यते सामान्यवाक्या इव दृश्यते
नाम तत्र लक्षणवाक्यं न तादृशं लक्षणवाक्यं वयं चिन्तयामः तद् किञ्चित् भिन्नं भवेत् इति खलु किन्तु एतद् साधारणवाक्यमिव दृश्यते अतः तत्र लक्षणवाक्यं वा न वा इति तत्र सन्देहः भवति संशयः भवति
लौकिकव्यवहारः नाम सामान्यरीत्या उक्तं भवति तद् भवति अत्र अर्थः यथा उदाहरणं दत्तमस्ति यथा शासनाधिमति गौः इति गौः प्रत्येकलक्षणमिति शासन इति तत्र शासनाधिमति गौ इत्युक्ते शासनयुक्त गौ इति तदेव तत्र गौः लक्षणमिति प्रत्येकलक्षणं विशिष्टलक्षणमिति तदपि सामान्य वाक्यं शासनाधिमति गौ इति सामान्यवाक्यमेव इव दृश्यते एतद् लौकिकव्यवहारः यथा नीलघटः इति व्यवहारः इव दृश्यते परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं तल् त्व तल ते भाववाचकप्रत्ययं कृत्वा लक्षणवाचकपदोत्तरं च लक्ष्यवाचकपदोत्तरं च षष्ठी प्रयुञ्जते यथा गन्धवत्वम् अत्र गन्धवत्वम् इति स्ववाचकं प्रथमः मतु प्रत्यय योजयित्वा पालन्तरं स्वप्रत्यययोजनेन अर्थः समाना भवति गन्धः इति. तत् अनन्तरं पृथिव्याः इति योजनेन उक्तमस्ति. पृथिव्याः इति पृथिवी इति स्पष्टेन उक्तमस्ति. अतः तद् लक्षणवाक्यं नैयायिकानाम् इच्छन्ति गन्धवत्वं पृथिव्याः लक्षणम् इति.
हा, अतः तत्र गन्धवत्वम् इति लक्षणं, पृथिवी इति लक्ष्यम् इति तत्र स्पष्टं भवति इति तेषाम्. तत्र अत्र तत्र गन्धवत्वम् इति विभक्ति का तत्र?
गन्धवत्वम् इति प्रथमाविभक्ति.
हा, किन्तु पृथिव्याः इति तत्र षष्ठी,
षष्ठी विभक्ति.
हा, अतः तत्र तत्र विभक्तिभेदः अस्ति.
अस्ति.
हा, किन्तु तत्र यदा तत्र गन्धवती पृथ्वी अस्ति तत्र किं विभक्ति?
तत्र प्रथमाविभक्ति द्वयोपदयो प्रथमाविभक्ति एव भवति.
हा, इति भेदः. हा, समीचीनं समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे तत्र योगेन्द्र. हा, धन्यवादः भगिनि, समीचीनमस्ति. अस्तु, अग्रे योगेन्द्रमहोदय अग्रे पठति वा?
तेषाम् अयमाशयः लक्ष्यगतं कश्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचार इष्टम्. प्रथमान्तपदैः शासनादिमति गन्धवति शीतस्पर्शवत्यः इत्यादिभिः तु लक्षणमेव निर्दिश्यते, न तु
लक्ष्यमेव निर्दिश्यते.
लक्ष्यम् एव निर्दिश्यते, न तु तद्गतधर्मः. शासनादिमतिका गौः एव, गन्धवतिका पृथिवी एव, शीतस्पर्शवत्यः का आपः एव. एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानः अपि आधार आदिर्भावः न बुध्येत्. अतः तत्त्वज्ञानाय.
हा, तावत्पर्यन्तं. हा, तावत्पर्यन्तं किञ्चित् वदतु महोदय. अतः तत्र एतत् वयं दृष्टवन्तः, तत्र नाम तत्र वयं लक्षणम् इति किमस्ति, किमपि विशेषधर्मः यः लक्ष्ये वर्तते खलु.
आम्.
हा, अतः तत्र लक्ष्यम् अस्ति, लक्ष्ये कोऽपि धर्मः अस्ति, तदेव लक्षणमिति चिन्तयितुम् इच्छामः. अतः तत्र लक्षणं किम् इति प्रश्नः भवति, लक्षणस्य वर्णनं भवेत् इति अस्माकम् आशयः खलु.
आम्.
किमपि लक्ष्यम् अस्ति, अस्तु, लक्षणं लक्ष्यमस्ति, एतस्य लक्ष्यस्य लक्षणं किम् इति प्रश्ने सति किमपि वयं वक्तुमिच्छामः. अस्तु अस्तु, एतदेव लक्षणम् इति. किन्तु यदि तत्र प्रथमान्तपदं तत्र गन्धवती पृथ्वी इति अस्ति, तत्र गन्धवती इत्युक्ते का?
पृथिवी.
पृथिवी एव. यथा तत्र उत्तमः बालकः इति अस्ति, विशेषणविशेषभावः इति वयं दृष्टवन्तः. तत्र उत्तमः इति तत्र गुणवाचकपदं वा गुणिवाचकपदं वा?
उत्तमः
तत्र गुणं सूचयति अथवा यस्मिन् गुणः अस्ति इति सूचयति वा?
गुणिवाचकशब्दः
गुणि खलु, गुणि नाम तत्र बालकः एव उत्तमः अथवा उन्नतः वृक्षः. तत्र उन्नतः इत्युक्ते कः? उन्नतः वृक्षः एव उन्नतः. अतः तत्र उन्नतः वृक्षं सूचयति, न तु वृक्षे विद्यमान औन्नत्यं खलु. औन्नत्यं उन्नतः भिन्नं खलु. हा, अतः तत्र उन्नतः यथा तत्र गुणिवाचकः पदमासीत् तथैव तत्र सास्नामति, गन्धवति, शीतस्पर्शवत्यः इत्यादि तत्र किं कुर्वन्ति? लक्ष्यं नाम गुणि तत्र अधोभागे तत्र लक्ष्यम् अस्ति, लक्ष्यं लक्षणम् अस्ति, तयोः मध्ये कीदृशभावः भवेत्? लक्ष्यम् आधारः वा अथवा लक्ष्यम् आदेयः वा किम्
लक्ष्यम् आदेयः
लक्ष्यम् आदेयः वा
आम्
लक्ष्यम् उपरि अस्ति वा अधोभागे अस्ति वा
लक्ष्यम् इत्युक्ते उन्नतः बालकः
न न केवलं तत्र तत्र लक्ष्यम् अस्ति लक्षणं किं लक्षणम् अस्ति लक्ष्ये विद्यमानः धर्मः खलु
आम्
तत्र लक्षणं लक्ष्ये अस्ति इति वा अथवा लक्ष्यं लक्षणे अस्ति इति वा
लक्षणं लक्ष्ये अस्ति
हा लक्षणं लक्ष्ये अस्ति अतः तत्र अधिकरणं किम् अस्ति
अधिकरणम् अस्ति लक्षणं लक्ष्ये तिष्ठति अतः अधिकरणम् अस्ति लक्ष्य
हा अधिकरणम् अस्ति लक्ष्यं लक्षणम् उपरि अस्ति खलु
आम्
हा तत्र अधोभागे लक्ष्यम् उपरि लक्षणम् उन्नतगन्धवती पृथ्वी इति यदि वदामः पृथ्वी इति अस्माकं लक्ष्यम् अतः तत्र पृथ्वी अधोभागे अस्ति लक्ष्यं लक्षणम् उपरि भवेत् खलु
आम्
किन्तु गन्धवती इति वदामश्चेत् गन्धवती विशेषणम् अस्ति गुणिवाचकपदम् अस्ति नाम तत्र गन्धवती नाम पृथ्वी अतः तत्र यथा तत्र उन्नतः वृक्षः उन्नतः कः उन्नतः नाम कोऽपि अस्ति यस्मिन् औन्नत्यमस्ति किन्तु कः इति न वदति औन्नत्यम् इति नास्ति किन्तु कोऽपि अस्ति यस्मिन् औन्नत्यम् अस्ति अतः तत्र अधोभागे आश्रयमेव सूचयति इति वयं पठितवन्तः खलु करपत्रे अतः तत्र गन्धवती सास्नादिमति एतत् सर्वम् अधोभागे यदस्ति नाम अधिकरणं लक्ष्यमेव सूचयति न तु उपरि यदस्ति लक्षणं सूचयति स्पष्टं वा महोदय
आम् अतः गन्धवत्वं पृथिव्याम् अस्ति
हा इति यदि वदामः तत्र पृथिव्याः लक्षणम् इति तादृशं तादृशं कुर्मश्चेत् किं भवति पृथिव्याः लक्षणं गन्धवत्वम् इति वदामः तत्र समीचीनं भवति तत्र आधारादेयभावः स्पष्टं भवति इति वयं कृतवन्तः अतः तत्र तत्र तद् ज्ञापन तज्ज्ञानाय नाम तत्र लक्षणं लक्ष्ये अस्ति इति तत्र समन्वयः समन्वयस्य सम्पादनाय तत्र अन्यत् वाक्यम् अपेक्षितम् इति समीचीनं वा महोदय उद्धम खलु
अतः षष्ठीविभक्त्याः उपयोगं
कुर्मश्चेत् तत्र गन्धवती पृथ्वी अस्ति चेत् तत्र वयं न जानीमः तत्र गन्धवती लक्षणं वा किम् अस्ति गन्धवती इत्युक्ते पृथ्वी एव तत्र उपरि यदस्ति तस्य विषयः एव नास्ति खलु अस्मिन् वाक्ये इति चिन्तनं भवति अस्तु समीचीनम् अस्तु अग्रे
धन्यवादः
अस्तु अग्रे नीता भगिनी अग्रे पठति वा तत्र अतः तन्ज्ञानाय इति पुटसङ्ख्या अस्ति पेज् 40
अतः तज्ज्ञायाय लक्षणवाक्यं यथा स्यात् तथा स्पष्टः धर्मबोधः स्यात् अतः गन्धवती इत्यत्र वः यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः यथा च गन्धवती योगत्व इत्युक्ते गन्धवत्व इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते स च भावः गन्धसमानकक्षः भवति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः अतः एव प्रसिद्धः नियमः मत्वर्थ्यात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति गन्धयोगमतु योगत्व इत्युक्ते गन्धः शीतस्पर्शयोगमतु योगत्व इत्युक्ते शीतस्पर्शः स्नास्ना योगमतु योगत्व इत्युक्ते स्नासना एव
समीचीनं भगिनी एतावत् किञ्चित् वदतु
अत्र प्रथमवारं वयं दृष्टवन्तः यदि उपरि गच्छामः चेत्त्व इति प्रत्ययस्य योजनेन अतोभागे मतु योजनेन त्व प्रत्ययेन भावः सिद्ध्यते, मतु प्रत्ययेन
आश्रयः
आधार आश्रयः इति उपरिस्तरे त्वं मध्यमस्तरे यदा वयं वदामः चेत् यदि पृथ्वी तत् गन्धवत्वम् अधमस्तरे
तत्र गन्धवती इत्युक्ते पृथ्वी
गन्धवती इति पृथिव्याः धर्मः
गन्धवती इति इत्युक्ते पृथ्वी एव गन्धवती इत्युक्ते पृथ्वी
गन्धवती इत्युक्ते पृथ्वी लक्षणं यदि गन्धवत्वम् इति लक्षणम्
गन्धवत्वम् अतः तत्र गन्धवती योगः त्वं कुर्मश्चेत् किं प्राप्नुमः
गन्धवती योगत्वम् इत्युक्ते गन्धवत्वं
अतः तत्र गन्धवत्वं किमस्ति पृथिव्याः धर्मः अस्ति
पृथिव्याः धर्मः अस्ति
अतः तत्र समीचीनम् अस्ति इदानीं वयं जानीमः अस्तु गन्धवत्वं पृथिव्याम् अस्ति अतो गन्धः पृथिव्याम् अस्ति इति जानीमः गन्धवती पृथ्वी इति जानीमः किन्तु अन्यत् यत्किमपि गन्धवती इति स्थाने यत्किमपि अन्यत् भवतु तत्र उन्नतः वृक्षः इति भवतु तत्र उन्नतवान् तत्र उन्नतत्वम् अथवा औन्नत्यम् इति एतत् तादृशं कृतवन्तः खलु तादृशम् अत्रापि गन्धवत्वम् इति पृथिव्याम् अस्ति इति स्पष्टं भवति इति अतः तत्र मतुपयोगः त्वं भावप्रत्ययेन तत्र गन्धः योगः
धर्मस्य अवगमनं भवति
अतः तत्र शीतस्पर्शमत्वम् इत्युक्ते पुनः शीतस्पर्शः एव
अत्र मत्वर्थ्यात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति
नाम प्रथमतया मतु कुर्मः तदनन्तरं भावप्रति यदि कुर्मः प्राप्नुमः पूर्वप्रकृति नाम
प्रकृति
प्रकृति यदासीत् तदेव प्राप्नुमः इति अतः तत्र गन्धः योग मतु योगः त्वं गन्धः इति एव भवति तथैव
शीतस्पर्शयोग मतु योगत्व शीतस्पर्शः एव
एतत् तत्र नैयायिकानां तत्र पुस्तकेषु तत्र किं वद किम् उक्तमस्ति तद्वत्त्वं तदेव इति तद्वत्त्वं तदेव नाम तद् योगः मतु योगः भावप्रत्ययः त्वं तद्वत्त्वं तदेव इति एतद् बहुवारं तत्र नैयायिकानां किमपि भवतु तत् तद्वत्त्वं नाम तदेव तद्वत्त्वं नाम तदेव इति बहुवारं श्रूयते अतः एतदेव अस्ति मत्वर्तीयां भावप्रत्यय प्रकृत्यर्थं गमयति इति तद्वत्त्वं तदेव इति अस्ति समीचीनं धन्यवादः भगिनि समीचीनम् अस्ति अतः तत्र इदानीं तत्र वयं जानीमः तत्र उपयोगः कः एतत् कुर्मश्चेत् वयं गुण वाचकपदं प्राप्नुमः गन्धवती इति गुणिवाचकः पदम् आसीत् खलु करपत्रे वयं पठितवन्तः गन्धवती इति विशेषणम् अस्ति गुणिवाचकपदम् अस्ति गुणिवाचकपदेन यदि वयं भावप्रत्ययं योजयामः गुणवाचकपदं प्राप्नुमः अतः तत्र गन्धवत्वम् इति गुणवाचकपदम् अतः तत्र लक्षणं भवितुम् अर्हति लक्षण एतत् लक्षणं वर्णितुं शक्नोति इति वार्ता अस्तु समीचीनम् अस्तु अग्रे तत्र अग्रे किञ्चिदेव अस्ति एतदपि पठामः तदनन्तरं तत्र यद् वयं पठितवन्तः तत्र पृथिव्याः लक्षणं तत्तु वयम् अवगच्छामः अग्रे तदनन्तरम् इदानीं तत्र शीतस्पर्शस्य एतत् सर्वं वयं पठामः किन्तु एतत् पुटं समापयामः तर्हि अग्रे तत्र नरसिंहमहोदय अग्रे पठितुम् इच्छति वा
पठामि तथा च सहस्नावत्वम् इत्यनेन सहस्ना गन्धवत्वम् इत्यनेन गन्धः शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते अतः आधारादेयभावः धर्माधर्मीभावः धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायुर्लक्षणम् इति ग्रन्थकारे व्याख्यायते.
अस्तु,
अत्र प्रथमतया मत् अनन्तरं भावप्रत्ययोजनेन तत्र गुणलक्षणं स्पष्टं भवति. यथा गन्धवत्वम् इति प्रतिभालक्षणम् इति वयं दृष्टं, तथा एव सास्नावत्वम् इति सास्ना गन्धवत्वम् इति गन्ध एव भवति, सास्नावत्वम् इति सास्ना एव भवति, शीतस्पर्शवत्वम् इति शीतस्पर्श एव भवति इति बोध्यते. अत्र अत्र आधारादयभाव धर्माधर्मीभाव धर्माधर्मीभावे समानमेव आधाराधारभावे धर्मी इति लक्ष्यं भवति, धर्म इति लक्षणं भवति, तत्र सुस्पष्टं भवति.
धर्मः इति उपरि अस्ति, आदेयः अस्ति, धर्मी इति आधारः अस्ति. समीचीनं. अतः तत्र
इदमेव शास्त्रे
धर्मत्वम् इति धर्मः उपरि अस्ति, लक्षणमस्ति, लक्ष्यम् अस्ति पृथ्वी. समीचीनं खलु महोदय?
आं समीचीनं. पृथ्वी आधिकरणमस्ति, गन्धवत्वम् आदेयते अस्ति.
समीचीनम्. अस्तु,
इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते. तस्य नूतननाम अस्ति तटस्थलक्षणम्.
तत्र यत् तत्र तटस्थलक्षणम् इति तत्र पूर्वमपि किञ्चित् उक्तवन्तः, किन्तु किञ्चित् अधिकमपि तत्र पुनस्मरणार्थं वदामः. तत्र तटः नाम नद्याः तटः वर्तते खलु, तटद्वयं. तत्र लक्षणम् इत्युक्ते किं? लक्षणं तत्र लक्ष्ये भवेत्. यत्र यत्र लक्ष्यमस्ति तत्र तत्र लक्ष्यसामान्ये भवेत्, अपि लक्ष्यविजातीयेषु मा भवेत् खलु इति वयं चिन्तितवन्तः. तत्र यत्र नदी अस्ति तत्र तटः अस्ति खलु, तटः अस्ति चेत् नदी अस्ति खलु. अतः तत्र यत्र यत्र नदी अस्ति तत्र तत्र तटः अस्ति, यत्र तटः अस्ति तत्र नदी अस्ति एव. अतः तत्र द्वयोः तत्र समागमनमस्ति खलु, किन्तु तटः भिन्नः अस्ति, नदी भिन्ना अस्ति. अतः तत्र भिन्नपदार्थस्य उपयोगेन तत्र लक्षणं भिन्नमस्ति, लक्ष्यं भिन्नमस्ति. तत्र गन्धवत्वं भिन्नमस्ति, पृथ्वी भिन्नमस्ति. यदा तादृशपदार्थं लक्षणम् इति स्वीकुर्मः तद् तटस्थलक्षणम्. यथा तत्र नदी अपि तटः, नदी भिन्नं, नदी भिन्ना, तटः भिन्नः, किन्तु यत्र यत्र नदी तत्र तत्र तटः, यत्र यत्र तटः तत्र तत्र नदी इति तादृशम्. अत्र यत्र यत्र गन्धवत्वमस्ति तत्र पृथ्वी अस्ति, यत्र यत्र पृथ्वी अस्ति तत्र तु गन्धवत्वम् अस्ति एव. अतः तत्र लक्षणम् इति स्वीकर्तुं शक्नुमः. अतः एव तत्र तटस्थलक्षणम् इति उच्यते. तत्र तटस्थलक्षणम् इत्युक्ते गुणवाचक, तत्र गुणस्य वर्णनम् एव तटस्थलक्षणं नाम. उपरि तत्र धर्मः, विशिष्टधर्मः, असाधारणधर्मः एव तटस्थलक्षणम्. अन्यत् लक्षणमस्ति तत्र स्वरूपलक्षणं. तत्र साक्षात् पदार्थस्य स्वरूपं स्वीकृत्येव, स्वरूपस्य वर्णनमेव भवति चेत् तदा स्वरूपलक्षणम् इति वदामः. स्वरूपलक्षणं गुणिवाचक भवति, तटस्थलक्षणं गुणवाचकपदं भवति इति भेदः. अस्तु, समीचीनम्. अस्तु, तत्र अग्रिमम् अपि किञ्चित् पठति वा महोदय, तथा च इति.
महोदय, एकं पृच्छामि किम्?
वदतु भगिनि.
एकः प्रश्नः, गतसप्ताहे वयं यत् पठितवन्तः तत्र अन्तिमे परिच्छेदे अन्यदपि एकं मतं दत्तमासीत्, यथा अधिकरणत्वमपि दर्शति, गन्धवती नाम गन्धस्य अधिकरणत्वं पृथिव्याम् अस्ति इति अपि तत्र अन्यत् एकं मतम् अस्ति. यदि तादृशं मतम् अस्माभिः स्वीकृतमस्ति चेत् तस्य स्वरूपलक्षणं भवेत् वा पृथिव्याः, गन्धवत्वं नाम गन्धस्य अधिकरणत्वं पृथिव्याम् अस्ति इति तस्य
उत्तमप्रश्नः भगिनी, अहं न जानामि तत्र ते किं स्वीकुर्वन्ति, किन्तु तत्र साधारणतया तत्र स्वरूपलक्षणं न भवति, तत्र सर्वदा तटस्थलक्षणम् एव स्वीकुर्वन्ति, यतोहि स्वरूपलक्षणं बहु क्लिष्टं लक्षणं भवति भगिनि, तत्र सौकर्याय तटस्थलक्षणम् एव सुलभं भवति, किन्तु तत्र सत्यं सत्यं हा तत्र ते अपि तटस्थलक्षणम् एव स्वीकुर्वन्ति इति मन्ये, स्वरूपलक्षणं न, किन्तु हा किन्तु तेषां मते तत्र लक्षणवाक्यं कीदृशं भवति इति न जानामि भगिनि. तत्र हा अतः तत् किन्तु अहम् अनेकेषु पुस्तकेषु तत्र अनेकेषु इति न किन्तु वदामः तत्र दश विंशतिषु तादृशेषु पुस्तकेषु दृष्टवान्, सर्वत्र तत्र तटस्थलक्षणमेव दत्तमस्ति भगिनि. अहं पृष्टवान् अपि तत्र स्वरूपलक्षणं बहु क्लिष्टं भवति तत्र तस्य निर्माणम् इति. अतः तत्र यथा तत्र वयं तत्र आत्मनः अथवा तत्र इति तत्र अन्ये शास्त्रेषु अपि तत्र यदि पश्यामः तत्र तटस्थलक्षणं सुलभमस्ति. अवगमनम् अग्रे नरसिंहमहोदय तत्र अग्रिमपरिच्छेदमपि पठति वा.
तथा च गन्धः आदेयश्चेत् तत्र आदेयत तन्निरूपिता अधिकरणता पृथिव्याम् अधिकरणतावती पृथिवी अधिकरणतावत्त्वं पृथिव्याम् इति गन्धनिष्ठ आदेयता निरूपित अधिकरणतावत्त्वं पृथिव्यालक्षणम् इति पृथिवीलक्षणम् इति फलितम्. सम्पूर्णलक्षणवाक्यं दत्तमस्ति. यदि गन्धः आदेयश्चेत् तस्य तत्र अधिकरणता पृथिव्यां भवति, पृथिवी अधिकरणतावती भवति, अधिकरणतावत्त्वं मतु प्रत्ययोजनेन मतु मधु भावप्रत्ययोजनेन अधिकरणतावत्त्वं पृथिव्याम् इति भवति. अतः सम्पूर्णवाक्यं गन्धनिष्ठ आदेयत आदेयता गन्धे अस्ति इति कृत्वा गन्धनिष्ठ आदेयत निरूपित अधिकरणतावत्त्वं पृथिवीलक्षणम् इति सम्पूर्णवाक्यं लक्षणवाक्यं भवति.
हा इति भवति, समीचीनं महोदय. हा अस्तु, अतः तादृशवाक्यं हा तादृशवाक्यं तत्र अग्रे यदि तत्र जलस्य लक्षणवाक्ये अथवा तेजसः वाक्ये अपि तत्र अथवा वायोः लक्षणवाक्ये अपि वयं पठामः. अस्तु समीचीनम्, अस्तु
धन्यवादः.
धन्यवादः महोदय. तत्र अग्रे तत्र अन्य को पठितुम् आना भगिनी, नमस्कारः, अग्रे पठितुम् इच्छति वा तत्र पुटसङ्ख्या अस्ति 41.
धन्यवादः. अत्र एव च व्याख्यासौकर्यं सौकर्याय आधार अध्येयभाव घटिते भाव घटिते जल तेजसः लक्षणे वर्णयामः. जललक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठ अध्येयत निरूपित अधिकरणतावत् त्वम् आपं जलस्य लक्षणम्. तेजोलक्षणे च उष्णस्पर्शनिष्ठ अध्येयत निरूपिताधिकरणतावत् त्वं तेजसः लक्षणम् इति वक्तव्यम्. चित्रप्रकारः तु पूर्ववत् अनुसन्धेयः. अत्र व्याख्यासौकर्याय आधाराध्येयभावघातिते जल तेजसः लक्षणे वर्णयामः.
इदानीं पदं तत्र विभक्ति का इति
लक्षणे
लक्षणे इत्युक्ते
सप्तमी विभक्तिः
न अत्र द्वितीया द्विवचनं किं वर्णयामः लक्षणे लक्षणं लक्षणे लक्षणानि इति तत्र जलस्य लक्षणं वर्णयामः तेजसः लक्षणं वर्णयामः इति किन्तु तदनन्तरं जललक्षणे इति सप्तमी पुनः
जललक्षणे सप्तमी अथर
सप्तमी अस्तु
वयं जानीमः यत् जलस्य लक्षणद्वयमस्ति शीतस्पर्शः शीतस्पर्शवत्यः आपः तत्र उक्तम् इत्यत्र शीतस्पर्शनिष्ठ अध्येयता निरूपिताधिकारणतवत् त्वं जलं जलस्य लक्षणम् इत्युक्ते जलस्य लक्षणं किं if we start from the end अधिकरणतावत् त्वम्
तत्र किम् अधिकरणं किम् अस्ति जलं जलमेव अधिकरणम् आपः इत्युक्ते जलमेव आपः बहुवचने भवति किन्तु तत्र आपः नाम जलम् अतः तत्र हा तत्र जलमस्ति जलमस्ति अधिकरणम् अस्तु
अधिकरणं जलम् अस्ति अधिकरणवत् त्वम् इत्युक्ते एतत् अधिकरणं निरूपितम् अस्ति केन निरूपितम्
अधिकरणतावत्त्वम् इत्युक्ते किमस्ति
अधिकरणता अधिकरणे अस्ति
हा किन्तु अधिकरणतावत्त्वम् इत्युक्ते
तदेव
अस्ति समीचीनं तद्वत्त्वं तदेव अधिकरणतावत्त्वम् अधिकरणता एव अतः तत्र अधिकरणता जले अस्ति अस्तु इदानीं
अस्तु अधिकरणता जले अस्ति तत् सा अधिकरणता निरूपिता केन निरूपिता शीतस्पर्श अध्येयतया निरूपिता इत्युक्ते
समीचीनम् अतः आदेयः कः अस्ति आदेयः अस्ति
लक्षणद्वयम्
न आदेयः अस्ति शीतस्पर्शः
शीतस्पर्शः
एव आदेयः अधिकरणमस्ति जलम् तत्र आधारादेयभावः इति अस्ति इति कृत्वा एकम् अधिकरणता आधेयतां निरूपयति आधेयता अधिकरणतां निरूपयति अतः तत्र तत्र निरूपनिरूपकभावः इति वयं दृष्टवन्तः अतः एतादृशं लक्षणवाक्यं यदि वदामः स्पष्टं भवति तत्र लक्षणं लक्ष्ये अस्ति इति अस्तु अस्तु तर्हि इदानीम् अग्रे समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र राजीव भगिनी अग्रे पठति वा
क्षम्यतां जि मम कण्ठः सम्यक् नास्ति चेत्
अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु तर्हि तत्र अग्रे तत्र अस्तु अशोक महोदय भवानेव अद्य तर्हि
अस्तु महोदय चाट् विन्दो मध्ये एक प्रश्न
अपां जलस्य इति केवलं तेषां शैली तावदेव
अस्तु शीतस्पर्शवत्य आपः ताः द्विविधाः नित्या अनित्याश्च नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् शरीरं वरुणलोके इन्द्रियं रसग्राहकं रसणं रसनं जिह्वाग्रवर्ती विषयः सरित्समुद्रादिः पूर्वं गन्धवती पृथिवी इति सूत्रं पठामः इदानीम् आपस्य
आपः इति बहुवचने अस्ति महोदय
आपानां लक्षणं दत्तम्
आपः किञ्चित् विशिष्ट आपः अतः जलम् इति स्वीकरोतु महोदय सुलभमस्ति
जलस्य लक्षणं दत्तं लौकिकरूपे शीतपशवत्यः वत्यः आपः इति
नैयायिकरीत्या लक्षणं वाक्यं वदामः चेत्
वत्यत्वं जलस्य लक्षणम्।
हा समीचीनं, हा समीचीनं महोदय, तदेव अस्ति जलस्य लक्षणं, शीतस्पर्शवत्वं जलस्य लक्षणम् इति समीचीनं। हा
इदानीं द्विविधा अस्ति, नित्या अनित्या, नित्या नित्या अनित्या, नित्या परमाणुरूप, अनित्या कार्यरूप।
परमाणवः तत्र नैयायिकनं, हा नैयायिकनं मध्ये तत्र परमाणवः नित्यपदार्थाः, अतः तत्र अन्येषु दर्शनेषु तादृशं नास्ति खलु, तत्र केचन एव पदार्थाः तत्र नित्यपदार्थाः इति स्वीकुर्वन्ति, परब्रह्म अथवा तत्र आत्मा इति। हा किन्तु अत्र परमाणवः अपि तत्र पार्थिवपरमाणवः, जलीयपरमाणवः, ते सर्वे नित्याः इति स्वीकुर्वन्ति नैयायिकाः।
परमाणु परमाणव
परमाणव
कार्यं, यदि कार्यं भवति तद् अनित्या।
हा नाम कार्यरूप नाम यस्य जन्म अस्ति, हा तत्र यस्य कारणमस्ति, नाम तत् अनित्यम् इति, तत्र नित्यम् इत्युक्ते तत्र तस्य उत्पत्तिः अपि नास्ति, उत्पत्तिराहित्यमपि नाशराहित्यम् इति एव नित्यं खलु। अनित्यं यस्य तत्र जन्म भवति इति, तत्र अतः तत्र वयं यस् किमपि कारणमस्ति, हा अतः तत्र तादृश जलं
समुद्रे, समुद्रे बहूनि परमाणुनि परमाणवः सन्ति, अतः समुद्रः कार्यम्, अतः समुद्रः अनित्यम्।
समीचीनं महोदय, तादृशं सत्यं सत्यं, हा तदेव तथैव अस्ति। हा हा अतः तत्र
कार्यरूप जलः त्रिविधाः अस्ति, शरीरमस्ति, विषयमस्ति, इन्द्रियमस्ति।
हा इति, हा तत्र विषयं नाम विषयं, तत्र शरीरम्, इन्द्रियं, विषयं सर्वं ज्ञानस्य विषयमेव, किन्तु किञ्चित् भेदः वर्तते इति तावदेव। अस्तु, अतः
वरुणलोके जीवाः सन्ति, तेषां शरीरं जलस्य उत्पन्नः,
जलेन जलेन कृतम् इति, जलेन कृतम् अथवा जलीय जलीय शरीरं तेषां।
इन्द्रियं रसग्राहकं रसनं, जिह्वा अग्रे अस्ति, अतः जिह्वाग्रवर्ति।
हा जिह्वाग्रवर्ति, हा जिह्वायाः अग्रे अस्ति। तत्र रसनं नाम यत् ज्ञानं तत्र रसग्राहक इन्द्रियेण तत्र भवति, तत्र तत्र रसनं, रसम् इति एव तत्र ज्ञानं, ज्ञानं भवति तत्र, रसस्य ज्ञानं रसनेन्द्रियेण प्राप्नुमः, एतेन इन्द्रियेण प्राप्नुमः। हा अत्र जिह्वाग्रवर्ति, जिह्वायाः अग्रे अस्ति, अपि अग्रे
अन्यविषय विषयः सरित् समुद्रः आदि।
हा
अन्यविषयः,
हा यत् शरीरं नास्ति, यत् इन्द्रियं नास्ति, किन्तु जलीयपदार्थः अस्ति, अनित्यः अस्ति, तत्सर्वं तत्र विषयः इति। हा तत्र लेफ्ट् ओवर् इति, यत् प्रथम शरीरे नास्ति, न तु इन्द्रियम् अस्ति, तत्सर्वं तत्र तृतीयविभागे गच्छति। अतः
शरीरम् इति यदि कस्यचित् प्राणिनः शरीरम्
इति नास्ति महोदय, तत्र अधो किञ्चित् उक्तमस्ति, तद् नाम तत्र अधोभागे तत्र अन्तिम वाक्यं पठतु महोदय, अस्मिन्नेव पुटे।
ओ शरीर जलपरमाणवादौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यम्, जलादि शरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा
हा नाम स्थितिः तादृशी स्थितिः अस्ति इति पुराणप्रसिद्धा अस्ति नाम पुराणेषु तादृशवर्णनं भवति इति तत्र अग्रिमे तत्र अत्र शरीरं तत्र जलीयशरीरं वर्णलोके अस्ति अग्रे तत्र अग्रे अपि तत् पश्यामः तत्र नाम तत्र यदि वयं तत्र भागवतपुराणं पठामः तत्र योगिनः तत्र यः योगी तत्र अग्रे गच्छति साधने तत्र पार्थिवशरीरं सः त्यजति त्यक्त्वा कुत्र गच्छति इति वर्णनम् अस्ति तत्र पार्थिवशरीरे तत्र पञ्चभूताः सन्ति किन्तु यदि सः तत्र साधने अग्रे गच्छति चेत् तत्र तदा तत्र तस्य स्थूलशरीरं गच्छति एतादृशवर्णनम् अस्ति तत्र ते तत्र वर्णनं वयं द्रष्टुं शक्नुमः तत्र ते वदन्ति तत्र सः वर्णलोकं गच्छन्ति इति तादृशवर्णनमस्ति एतद् भागवतपुराणे अस्ति किन्तु अन्येषु पुराणेषु तादृशवर्णनमस्ति नाम तत्र ये वर्णलोके सन्ति तत्र तेषां शरीर तत्र पार्थिवपदार्थः नास्ति किन्तु तत्र जलीयपदार्थः अस्ति तत्र तस्य उपरि तत्र तेजसः इति एतत् सर्वं वर्णनम् अस्ति अतः तत्र पुराणप्रसिद्धः अस्ति तत्र एतादृशं वर्णनं
मम प्रश्नः शरीरे आत्मा अस्ति वा न वा
तत्र नैयायिकानां मतं किम् इति वद् पश्यामः महोदय समीचीनप्रश्नः हा उत्तमप्रश्नः तत्र
अहं सरित् शरीरं भेदं अवगन्तुम् इच्छामि सो सरित् सरितः आत्मः नास्ति शरीरे आत्मः अस्ति इति भेदः वा न वा
सरित् समुद्रम् इत्युक्ते सरित् इत्युक्ते किम् इति जानाति खलु महोदय सरित् इत्युक्ते तत्र शरीरम् इत्युक्ते तत्र प्रायशः तत्र जीवः इति चिन्तनं तत्र हा इति हा सत्यं सत्यं महोदय तत्र अतः तदेव भेदः तत्र जीवपदार्थानां तत्र शरीरम् इति किन्तु सर् इति तादृशं नास्ति इति चिन्तनं
तदेव मम प्रश्नः
तथैव अस्ति महोदय अतः तत्र जीवः जीवस्य इन्द्रियः द्वितीयविभागः तदनन्तरं तत्र यत् सर्वं तत्र भिन्नमस्ति इति अपि तत्र अन्या रीत्या अपि एतद् वक्तुं शक्नुमः महोदय तत्र त्रैविध्यं तत्र नाम तत्र ज्ञानेन्द्रियं तत्र सद्गुणेन प्राप्तम् एतत् तमोगुणेन प्राप्तम् इति तत्र अन्ये दर्शनेषु अथवा पुराणेषु तादृशवर्णनमस्ति तत्र पञ्चभूतां स्वीकृत्य तत्र किं लोकस्य तत्र सृष्टिः कथं भवति इति वर्णने तत्र सत् रजस्तमस् इति स्वीकृत्य तत्र त्रैविध्यं भवति एतत् नैयायिकानां मते तादृशविभागः इति अपि चिन्तयितुं शक्नुमः
अस्तु महोदय
अस्तु अस्तु तर्हि अस्तु अग्रे धन्यवादः महोदय समीचीनम् अस्ति
महोदय अत्र विषयः सरित्समुद्रादिः न अवगतम्
नाम यत् शरीरं नास्ति पृथिव्याः लक्षणे किं शरीरम् इत्युक्ते अस्मदि तत्र अस्माकं मनुष्याणाम् अथवा तत्र प्राणिनाम् इति तादृशं शरीरं पार्थिवशरीरं य तदनन्तरं तत्र इन्द्रियमस्ति तत्र ग्राहेन्द्रियम् यद् शरीरं नास्ति इन्द्रियं नास्ति भिन्नमस्ति तत्सर्वं किन्तु पार्थिवपदार्थः अस्ति तत्सर्वं विषयः पाषाणम् इति तादृशविभागे भवति अतः तत्र प्रथमविभागः शरीरं द्वितीयविभागः इन्द्रियम् यत् शरीरं नास्ति इन्द्रियं नास्ति तत्सर्वं तृतीयविभागे विषयः विषयः नाम ज्ञानस्य विषयः शरीरमपि ज्ञानस्य विषयः किन्तु शरीरं ज्ञानस्य विषयः अपि शरीरम् अन्यत् सर्वं केवलं विषयः इति चिन्तनम्
किन्तु सरित्समुद्रादिः शब्दस्य अत्र सन्दर्भः किं न
सरित् इत्युक्ते जलेन निर्मितं खलु भगिनि
जलेन निर्मितं
सरित् सरित् मध्ये केवलं जलमेव अस्ति खलु समुद्रे जलमेव अस्ति खलु जलीयपदार्थः खलु तत्र समुद्रः पाषाणे जलांशः नास्ति खलु पाषाणखण्डे जलांशः नास्ति खलु केवलं पार्थिवपदार्थः एव भवति खलु पाषाणः तथैव तत्र समुद्रम् अथवा सरित् केवलं जलेन निर्मितम् इति जलेन अतः तत्र जलीयपदार्थः किन्तु शरीरम् इति अस्माकं शरीरं तत्र पार्थिव अंशः आधिक्येन अस्ति किन्तु जलमपि अस्ति खलु सर्वमपि अस्ति किन्तु तत्र पार्थिव इति चिन्तनम् अत्र तावदेव अतः तत्र भेदः वर्तते नाम तत्र अस्माकं शरीरे तत्र जलांशः अपि वर्तते किन्तु पाषाणे तादृशं नास्ति विषयः इत्युक्ते तत्र यद् ज्ञानस्य विषयः किन्तु जलपदार्थः अस्ति तदेव तत्र जलस्य विवरणे जलपदार्थः अस्ति अपि यत् शरीरम् इन्द्रियं नास्ति तदेव तावदेव अस्तु समीचीनं तत्र वाटर् बाडि अथवा तत्र ग्रास् मेनिफेस्टेशन् तादृश किमपि यत् जलेन कृतम् अस्ति तद् जलविषयः इति वक्तुं शक्नुमः सत्यम् अस्तु अन्य कोऽपि प्रश्नः अस्तु तर्हि अग्रे सरामः तत्र पुनः प्रेमलता भगिनी अग्रे भवती एव तत्र इदानीम् उष्णस्पर्श
उष्णस्पर्शवत्तेजः तद्विधं नित्यम् अनित्यं च नित्यं परमाणुरूपम् अनित्यं कार्यरूपं पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् शरीरम् इन्द्रियरू आदित्यलोके इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ते विषयः चतुर्विधः भौमोदर्याः आकरभेदात् भौमं बाह्यादिकं वन्यादिकम् अभिन्दनं दिव्यं विद्युदादि उक्तस्य परिणामहेतु उदर्यम् आकरजं सुवर्णादि
इदानीं तत्र जलस्य विवरणं लक्षणं प्राप्तं नाम जले शीतस्पर्शः अस्ति इति लक्षणवाक्यम् अग्रे गत्वा तत्र किञ्चित् वदति तत्र शीतस्पर्शः स्पर्शस्य विषये गुणस्य लक्षणं तस्मिन् समये स्पर्शः एतत् सर्वं समीचीनतया भवति इदानीं तत्र तेजः नाम तेजस्य लक्षणवाक्यम् उष्णस्पर्शः इति अतः तत्र तस्य द्विविधम् अस्ति
अत्रापि नित्यम् अनित्यं च भवति कृते नित्यं परमाणुरूप परमाणवः अत्रापि तेजसे अपि सन्ति भवन्ति अनित्यं कार्यरूपं कार्यकारणरूपं यद्भवति
जन्म अस्ति तत् कार्यम् इति
तत् कार्यं भवति तद् अनित्यं भवति एव तस्य उत्पत्तिः नाशः अपि भवति जन्मराहित्यमपि भवति अतः तत् कार्यरूपं भवति तद् पुनः त्रिविध तत् कार्यरूप तेजः पुनः त्रिविधम् इति उक्तमत्र शरीरेन्द्रियविषयभेदात् पुनः तत् शरीरम् इन्द्रियं इति विषये भेदात् तत् पुनः त्रिविधम् उक्तमस्ति. शरीरम् आदित्यलोके भवति इति उक्तम्. इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति.
तत्र शरीरम् आदित्यलोके इति आदित्यलोके इति उक्तं. तत्र
आदित्यलोके तेजः अस्ति इत्येव इत्यतः शरीरम् आदित्यलोके इति
सत्यं भगिनि. सत्यं भगिनि. तत्र अन्यदपि तत्र पूर्वं विस्मृतवान् नाम तत्र पञ्चभूतानां तत्र अधिष्ठानदेवताः सन्ति खलु. तत्र तत्र पृथिव्याः तत्र दिग्देवताः इति सन्ति. अपि तत्र जलस्य तत्र वरुणदेवता इति अधिष्ठानदेवता. अपि तत्र तेजसः तत्र आदित्यः. अपि तत्र वायुः वायुः एव वायुदेव.
आदित्यः अत्र तेजसः अधिष्ठानदेवता
इति कृत्वा तत्र शरीरं तत्र तादृशशरीरम् आदित्यलोके अस्ति इति वर्णनम्.
इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति. तत्र रूपग्रहणं भवति. रूपनाम वर्णः इति अर्थः भवति वा अत्र?
सत्यं सत्यं भगिनि. रूपनाम वर्णः. वर्णस्य वर्णस्य ज्ञानं येन इन्द्रेण भवति सः एव तत्र
तेजसा भवति. तत् तदपि कृष्णताराग्रवर्ति. अत्र कृष्णतारा अस्ति चक्षुषि अस्ति इति कृष्णतारा अस्ति तस्य.
अस्माकं तत्र चक्षुषु अस्ति खलु तत्र कृष्णतारा.
तस्य अग्रभागे
अग्रभागे चक्षुः अस्ति इति तेषां चिन्तनं
चिन्तनमस्ति. विषय चतुर्विधः अत्र.
पूर्वं तत्र विषयस्य बहुविधाः इति न उक्तं किन्तु अत्र विषयः चतुर्विधः इति उक्तम् इदानीं प्रथमवारं.
पूर्वं शरीर समुद्रादि इति उक्तं
केवलम् इत्यादि इति एव उक्तम्. इदानीं
जलस्य विषये तत् उक्तम्. अत्र विषय चतुर्विधः इति उक्तं. भौम उदर्यः आकरजभेदात् इति.
भौम्य दिव्य
उदर्य आकरजभेदात् भौम इति भूमिसम्बन्धः भवति एव.
सत्यं भगिनि. भूमौ यत् तेजः पश्यामः तदस्ति वह्निः तेजः यत् पश्यामः तदस्ति वह्निः.
अग्निः अपि
वक्तुं शक्नुमः
शक्नुमः
नाम अग्निः यत् साधारणतया वयं भूमौ पश्यामः. अस्तु अग्रे
दिव्य इति दैविक
इति अस्ति. तत् केवलं नामकरणं. विद्युदादि विद्युत् इति तत्र
दैविकसम्बन्धः दिव्य
इति अस्ति. तत्र विद्युदादि विद्युत् इति तदपि तेजः तत्रापि तेजः वर्तते खलु. विद्युत् विद्युत् मध्ये तेजः अस्ति. किन्तु तत्र भेदः वर्तते नाम यः वह्निः भूमौ अस्ति अपि तत्र तेजसः पदार्थः वह्निः अपि तत्र विद्युत् तयोः मध्ये भेदः वर्तते नाम कुत्र इन्धनम् इत्युक्ते किम् आङ्ग्लभाषायां वदतु. इन्धनं नाम कारणं फ्यूवल् इति तत्र फ्यूवल् इति तत्र इन्धनं तदा एव तत्र इण्डियन् ग्यास् सर्वम् अस्ति खलु इन्धनम् इन्धनम् इति आगतम् इन्धनं तत्र अबिन्धनम् अबिन्धनं नाम
जलस्य
हा तत्र आप् यस्य इन्धनम् अस्ति सः इति अर्थः अबिन्धनं नाम आपः यस्य इन्धनम् अस्ति जलं यस्य इन्धनम् अस्ति सः इति विग्रहवाक्यं विद्युत् केन भवति विद्युत् तत्र मेघाः सन्ति आकाशे मेघात् विद्युत् भवति खलु मेघे किमस्ति जलमस्ति जलेन जलं कारणमस्ति कार्यमस्ति विद्युत् अतः तत्र तेजः विद्युत् तेजपदार्थः तत्र जलेन कृतमस्ति कृतः पदार्थः किन्तु तत्र भूमौ यः तेजः अस्ति तत्र वह्निः तस्य कारणं जलं वा न खलु अतः तत्र भेदः वर्तते इति तेषां चिन्तनम् अतः तत्र भौमं भन्यादिकम् इति प्रथमविधं द्वितीयविधं तत्र अभिन्धनम्
अभिन्धनं दिव्यं विद्युदादि
विद्युदादि आकाशे यः वर्तते जलेन जलं यस्य कारणम् इन्धनम् अस्ति तादृशः पदार्थः अपि तृतीय अस्ति भुक्तस्य
भुक्तस्य परिणामहेतु उदर्यम् इति
उदर्यं भुक्तस्य भुक्तस्य नाम यः भोजनं करोति तत्र भोजनम् अस्ति तदनन्तरं किं तस्य परिणामं किं भवति
जठराग्नि इति भवति
वा इति अतः तत्र तदेव तत्र कार्यं करोति खलु
कृते
तत्र पचनकार्यं तत्र
डैजेशन् यद्भुक्तं तस्य पचनकार्यम् एतत् भवति
हा तदेव अस्ति उदरं तत्र तत्र उदर्यम् इति अस्ति तत्र
उदरम्
उदरे यदस्ति तत्र उदर्यम् इति परिणामहेतुः नाम पचनं क्रियायाः कारणं हेतुः नाम कारणम् यत् यत् उक्तमस्ति तस्य पचनस्य कारणं तत्र पचनं केन भवति तत्र जठराग्निना भवति अतः तत्र तदेव तत्र तृतीयविधं तेजः अस्ति
आकरजं सुवर्णादि
हा आकरजम् आकरः नाम किं कोऽपि जनति स्वयं समीचीनम् आकरः नाम मैन् आकरे सुवर्ण इत्यादि तत्र लभन्ते अतः तत्र आकरजं सुवर्णम् अपि तत्र अयः ऐरन् रजतम् एतत् सर्वम् आकरजं तस्मिन् विभागे ते सर्वे अन्तर्भूताः सन्ति तत्र सुवर्णमपि तत्र तेषां मतमस्ति तत्र तदपि तैजसपदार्थः यतोहि तत्र प्रकाशते खलु
प्रकाशते आकरजे तत् उत्पत्तिः भवति वा
आकरे उत्पत्तिः भवति इति कृत्वा आकरजम् इति वर्णनं तेषाम् अतः तत्र चतुर्विध तत्र पदार्थाः तत्र तैजसः चतुर् अनित्यपदार्थानां चतुर्विध्यं अस्तु समीचीनम् तत्र सुवर्ण इति तत्र तस्मिन् विषये अपि तत्र सुवर्णः कथं तैजस् तत्र तेजः भवति इति विषये महती चर्चा भवति तस्मिन् विषये एव तत्र वयम् एकमासपर्यन्तमपि तत्र चर्चयितुं शक्नुमः तत्र यतोहि तत्र प्रत्येकविषये तत्र न्यायशास्त्रे अनेकेषु पुस्तकेषु तत्र चर्चा भवति एकं मतं वदति न एतत् समीचीनं नास्ति अन्यमतमति वदति न एतत् सत्यमस्ति यतोहि तत्र टीका अस्ति टीकायाः उपरि पुनः टीका अस्ति तस्य उपरि वार्तिका अस्ति अतः एतत् अनेके विषयाः तत्र सन्ति, किन्तु अस्माकं चिन्तनम् अस्ति वयं तु किम् अस्माकं वर्गः अस्ति तत्र न्यायशास्त्र 101 एव खलु तत्र हा वयं बालाः आदौ उक्तमस्ति तत्र तर्कसङ्ग्रहे वयं केवलं तत्र प्रविष्टुम् इच्छामः अतः तत्र सारल्यरूपेण अत्र सर्वं दत्तमस्ति प्रत्येकविषये तत्र बहु किमपि चर्चयितुं शक्नुमः अतः तत्र रसं हा
सुवर्णमपि आकलजे उत्पत्ति भवति आकलजे उष्णः अस्ति किल अत्र
हा इति अपि वक्तुं शक्नुमः हा किन्तु तत्र सुवर्णः तेजः अस्ति न वा इति विषये तत्र किञ्चित् तत्र स्वरूपमहोदयेन लिखितमस्ति करपत्रमस्ति तत्र यदा ध्वनिमुद्रणं प्रेषयामि अस्य वर्गस्य तस्यापि लिङ्क् प्रेषयामि किन्तु तद् तस्य करपत्रस्य पठनं मास्तु इदानीम् इति मम चिन्तनं यतोहि विद्याधर्यं किञ्चित् अग्रे सरामः किन्तु ये इच्छन्ति ते निश्चयेन पठन्तु यतोहि स्वरूपमहोदयस्य करपत्रं सर्वदा समीचीनं भवति किन्तु हा किञ्चित् अग्रे सरामः इति आशयः तावदेव अस्तु समीचीनं मन्ये धन्यवादः
धन्यवादः महोदय
हा अस्तु अग्रे सरामः तर्हि तत्र अग्रे धनश्री भगिनी अग्रे पठितुम् इच्छति वा
रूपरहितस्पर्शवान् वायुः सः द्विविधः नित्यो अनित्यश्च नित्यः परमाणुरूपः अनित्यः कार्यरूपः पुनः त्रिविधः शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ती विषयो वृक्षादिकम्पनहेतुः शरीरान्तः सञ्चारी वायुः प्राणः स च एको अपि उपाधिभेदात् प्राणापानादिसंज्ञा लभते अत्र वायोः वर्णनमस्ति रूपरहितस्पर्शवान् तत्र गुणद्वयमस्ति एकं तु रूपरहितम् अनन्तरं स्पर्शवान् अस्ति पुनः तत्र सः द्विविधः एकं च एकं नित्य अनित्यः अन्यत् अनित्यः नित्यः परमाणुरूपः अनित्यः कार्यरूपः तत्र पुनः त्रिविधः भेदः शरीर इन्द्रिय विषयभेदात् नाम वायुशरीर वायोरिन्द्रिय वायु विषयः तादृशं शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति वायोः शरीरं तु वायुलोक वायोः शरीरयुक्तं वायुलोके सन्ति तस्य इन्द्रियः अस्ति तत् त्वचा त्वक् नाम त्वचा सर्वशरीरवर्ति पूर्ण सर्वस्मिन् शरीरे तस्य व्यापकता अस्ति अनन्तरं विषयः वृक्षादिकम्पनहेतुः नाम कस्यापि यदि कम्पनं भवति तस्मात् वायु भवति इति अर्थः
हा समीचीनं तत्र वायुः एव कारणं हेतुः नाम कारणं
तस्य कम्पनस्य कारणं वायुः
वृक्षः अस्ति अन्ये किमपि अस्ति तस्य कम्पनं वायुना भवति इति कृत्वा वायुः हेतुः भवति हेतुः अस्ति कम्पनक्रियायाः हेतुः
शरीरान्तः सञ्चारी वायु प्राण शरीरस्य अन्ते अपि वायुसञ्चरति तस्य नाम प्राण तच्च एकः अपि एक एव अस्ति तद्वायुः परन्तु तस्य उपाधिभेदः अस्ति नाम यत्र यत्र तत्
प्राणवायुः
तत्र तत्र उपाधिभिन्ना
देश उपाधि नाम देश अथवा स्थान स्थानभेदात्
स्थानभेदात् प्राणापानादि नाम पञ्चप्राणयं यद् वयं वदामः तादृशं तत्र संज्ञा लभते
समीचीनं हा समीचीनं तत्र प्राणापान उदान समान तत्र अन्तिमं किं ध्यान इति अतः तत्र एकं तत्र सर्वत्र वर्तते किन्तु तत्र अन्येषां तत्र विशिष्टस्थानमेव अस्ति विशिष्टकार्यमपि अस्ति अतः तत्र तेषां भेदः उपाधिभेदः देशं देशभेदः कार्यभेदः इति अपि चिन्तयितुं शक्नुमः. अतः तया तत्र उपाधिना तत्र ते नामानि विशिष्टनामानि लभन्ते. अतः तत्र प्राण अपान इत्यादि संज्ञां ते लभन्ते. अतः तत्र वायुः तत्र प्राणः रूपेण तत्र शरीरे अपि अस्ति. अतः तत्र एतावत् अस्माकं तत्र किम् अवगन्तम् अस्माभिः किम् अवगन्तव्यम् अत्र इत्युक्ते तत्र लक्षणवाक्यं कीदृशम् इति एव तत्र अवगन्तव्यमस्ति. तत्र इन्द्रियस्य विवरणम् अपि तत्र तत्र प्रत्यक्ष तत्र ग्रहणं तत्र नाम तत्र रूपस्य स्पर्शग्राहकं तत् कार्यं कथं करो भवति प्रत्यक्षं ज्ञानं कथं किम् अस्ति तत् कथं प्राप्नुमः एतत् सर्वम् अग्रे तत्र विस्तारेण दत्तमस्ति. इदानीम् अस्माकं तत्र सा अवधानं केवलं तत्र लक्षणवाक्यं कीदृशम् अस्ति इति एव. अस्तु, समीचीनं, धन्यवादः भगिनी. अस्तु, अग्रे तत्र नरसिंहमहोदय अग्रे पठति वा? अस्तु, तर्हि तत्र
तत्र शरीरेन्द्रियविषयभेदात् इति सङ्ग्रहग्रन्थः. इह ग्रहणसौकर्येण पृथिव्याधिचतुष्टयस्य पट्टिका प्रदर्श्यते. द्रव्यं पृथिवी, जलं, तेजः, वायुः. शरीरं मनुष्यादीनां कुरणलोके, आदित्यलोके, वायुलोके. इन्द्रियं प्राणं, रसनं, चक्षुः, त्वक्, विशेषः मृत्पाषाणादि, सरिसमुद्रादिः, भौमादिः, वृक्षादि, कम्पनहेतुः. उपरि यत् वयं पठितं तद् कोष्टकरूपेण अत्र दत्तमस्ति. द्रव्यं कानि कानि सन्ति? पृथिवी, जलं, तेजः, वायुः इति द्रव्ये आगच्छति. तत्र भेदत्रयमस्ति शरीर इन्द्रियविषये इति. पृथिव्यां शरीरे इत्युक्ते मनुष्यादीनाम्, इन्द्रियम् इत्युक्ते ग्राणं मनुष्य पृथिव्यां, विषये इत्युक्ते मृत्पाषाणादि. जले शरीरम् इत्युक्ते वर्णलोके भवति. इन्द्रियम् इत्युक्ते रसनं, विषय इत्युक्ते सरिसमुद्रादि. तेज द्रव्ये शरीरम् आदित्यलोके भवति. इन्द्रियं चक्षुः भवति, विषयः भौमादि भवति. वायु द्रव्ये शरीरं वायुलोके भवति, इन्द्रियं चुक् भवति, विषयः वृक्षादिकम्पनहेतु भवति इति अत्र कोष्टके दत्तम् अस्ति, सङ्ग्रहरूपेण दत्तमस्ति. जलपरमाणादौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यम्. जलादिशरीराणां वर्णलोके स्थितिः पुराणप्रसिद्धः. नासिकादिकम् अधिष्ठानम् आश्रयः. तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं जनयन्ति. जलपरमाणवादि अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यम् इत्युक्ते जलपरमाणु मध्ये नित्यत्वं भवति, इतरेषु अनित्यत्वं भवति इति.
सत्यं, यथा तत्र पृथिवी मध्ये स्थितिः यथा आसीत् तथैव अत्रापि तत्र परमाणवः नित्यपदार्थाः, जलस्य परमाणवः वा अथवा पार्थिवपरमाणवः वा, किन्तु अन्यत् सर्वं कार्यरूपमेव अस्ति, अतः तत्र अनित्यम् इति.
जलशरीरादीनां पुरणलोके स्थितिः, यथा पृथ्वीशरीरादि पृथिव्यां भवति, जलशरीरादि वर्णलोके भवति. पुराणप्रसिद्ध इति अस्ति यत् भवान् इदानीम् उक्तं, पूर्वमुक्तं. नासिकादिकम् अधिष्ठानम् आश्रयः. एतत् महोदय
तत्र इन्द्रियाणाम् अधिष्ठानम् अथवा आश्रयः तत्र नासिकादि इति यत् सर्वम् उक्तमस्ति एतत् सर्वम् आश्रयः अस्ति. तत्र एव इन्द्रियम् अस्ति, किन्तु इन्द्रियं साक्षात् नासिका तत्र नास्ति खलु. घ्राणेन्द्रियं नासिकायां नासिका तत्र नासाग्रवर्ति इति अस्ति अतः तत्र नासिकादिकम् अधिष्ठानम् अथवा आश्रयः अस्ति इन्द्रियस्य न तु स्वयम् इन्द्रियम्
अधिकरणम्
इति इन्द्रियस्य अधिकरणं न तु स्वयम् इन्द्रियम् इति तावदेव
तत्र स्थितानि इन्द्रियाणि गन्ध गन्धादिप्रत्यक्षं जनयन्ति नासिके स्थितस्य इन्द्रियाणि नासाग्रवर्ति तत् गन्धादिप्रत्यक्षं जनयन्ति गन्धस्य अनुभवं करिष्यति
नाम तत्र नासाग्रवर्ति तत्र घ्राणेन्द्रियं नासिकायाम् अस्ति नासिका एव तस्य आश्रयः अस्ति आश्रये स्थित्वा घ्राणेन्द्रियं गन्धस्य ज्ञानं जनयति गन्धस्य प्रत्यक्षं ज्ञानं प्रत्यक्षं ज्ञानम् इति तत्र ज्ञानस्य अग्रे पठामः तत्र प्रत्यक्षं ज्ञानम् अस्ति अनुमानम् इति अस्ति अतः तत्र चतुर्विधं शाब्दबोधः इति अस्ति अतः तत्र एतत् सर्वम् उपमानम् इति अपि अस्ति तत् सर्वम् अग्रे पश्यामः तत्र प्रत्यक्षज्ञानं जनयति तथैव अन्य इन्द्रियमपि तत्र जलीय इन्द्रियं वा तत्र रसनेन्द्रियं वा एतत् सर्वं प्रत्यक्षज्ञानं जनयति तत्र सारल्यार्थं तत्र यत् ज्ञानम् इन्द्रियेण लभ्यते तद् ज्ञानं प्रत्यक्षज्ञानं तावदेव तत्र चक्षुषा भवति चेत् तत् प्रत्यक्षं नाम अक्ष इति एव अस्ति खलु चक्षुषा तत्र तथैव तत्र प्रत्यक्षं नाम इन्द्रियेण प्राप्तं ज्ञानम् इति अस्तु अग्रेपि किञ्चित् पठति वा महोदय
तेजोग्रन्थे अभिन्दनम् इति आपः जलं निमित्तिक निमित्तकारणं यस्य तत् विदिदादि सुवर्णस्य तेजरूपता वेदबोधिता अग्रे अग्रेरपत्यं प्रथमम् क्षम्यताम् अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः तेजोग्रन्थे अभिन्दनम् इति
नाम तत्र तेजसः वर्णनं तत्र परिच्छेदं यदस्ति तेजोग्रन्थः इति तावदेव नाम तत्र तेजस्य विवरणं यस्मिन् भागे भवति तदस्ति तेजोग्रन्थः पुस्तकमस्ति पुस्तके एकस्य एकस्मिन् विभागे तेजसवर्णनं भवति चेत् तद् भवति तेजोग्रन्थः अतः तत्र तेजोग्रन्थे किं लिखितमस्ति अभिन्दनम् इति आसीत् खलु पदम्
अभिन्दनम् इति आसीत्
तत् किम् इति इदानीं वर्णनम् अस्ति
आपः जलं निमित्तकारणं यस्य तत् विद्युदारि
जलं
जलस्य अभिन्दनम् इति जलस्य कारणे विद्युत् उत्पादनं भवति तदेव अभिन्दनम्
इन्धनम् इति अस्ति तस्मात् प्राक् आप् अप् अप् योगः इन्धनम् अभिन्दनम् अभिन्दनं तत्र नाम इन्धनं जलं यस्य अस्ति तत्र जलं यस्य निमित्तकारणं निमित्तकारणमपि अग्रे पश्यामः तत्र अग्रे तत्र कारणानि कीदृशानि सन्ति इति तत्सर्वं पश्यामः तत्र निमित्तकारणम् इत्युक्ते यत् किम् अस्ति इति पश्यामः अतः तत्र यत् यत् अस्ति यस्य जलं निमित्तकारणमस्ति तत् विद्युत् अस्ति इति अत्र तत्र किञ्चित् वर्णनं दत्तमस्ति अग्रे सुवर्णस्य
सुवर्णस्य तेजोरूपता वेदबोधिता सुवर्णे तेजसः अस्ति इति वेदे लिखितमस्ति
तत्र अग्रिमवाक्यम्
अग्नेरपत्तम् अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः
तत्र श्रुतिवाक्यमस्ति श्रुतिवाक्यं किमस्ति अग्नेः अपत्यम् अग्नेः अपत्यं नाम अपत्यं नाम किमपि कोऽपि वदति वा
पश्य वि केनाट् टच् इट्
सन्तानं सन्तानमिति अग्नेः सन्तानम् अस्तु हिरण्यं तत्रैव सुवर्णं तेजः इति लब्धं खलु श्रुतिवाक्येन इति सः वक्तुमिच्छति अतः सुवर्णः तेजः एव इति तत्र श्रुतिवाक्यमपि अस्ति अतः प्रमाणं तदेव तदेव स्व प्रमाणरूपेण स्वीकर्तुं शक्नुमः इति अस्ति अतः तत्र एतावत् तत्र पञ्चभूतानां तत्र लक्षणं कथं भवति इति वयं दृष्टवन्तः इदानीं तत्र यथा तत्र धनश्रीभगिनी उक्तवती तत्र वायोः लक्षणवाक्ये तत्र भागद्वयम् अस्ति अतः तत्र किञ्चित् समयः अस्ति किञ्चित् पठामः तर्हि तदनन्तरम् अग्रे अग्रिमे वर्गे पूरयामः अस्तु धन्यवादः महोदय समीचीनम् अस्ति
धन्यवादः महोदय
हा अस्तु अग्रे आना भगिनी अग्रे पठति वा
इदानीं कोष्टकं वा पठामः
इदानीं तत्र दलसार्थक्यं नाम किम् इति अग्रिमे पुटे
दलसार्थक्यं नाम किम् अथ वायु वायु ग्रन्थे विशेषः चिन्त्यते
हा नाम भाष्यन्ते नाम वायोः भर्णनं यस्मिन् विभागे अस्ति तदस्ति वायुग्रन्थः तावदेव नाम वायुग्रन्थः इत्युक्ते तत्र बृहद् बृहान् ग्रन्थः इति मा चिन्तयतु वायुग्रन्थः नाम यस्मिन् विभागे वायोः वर्णनम् अस्ति सः अस्ति वायुग्रन्थः अत्र परिच्छेदः एव वायुग्रन्थः अस्ति रूपरहितस्पर्शवान् वायुः आरभ्य लभते तावत्पर्यन्तं वायुग्रन्थः हा वायुग्रन्थे कोऽपि विशेषः अस्ति सः विशेषः इदानीं चिन्त्यते अस्तु
अस्तु रूपरहितः स्पर्शवान् वायुः इति वायुलक्षणं रूपरहितः रूपं यस्य नास्ति स्पर्शवान् तस्य स्पर्शः अस्ति एषः वायुः पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं पूर्वस्मिन् कृते रूपरहितः इत्यस्य रूपसामान्य अभाववत् रूपसामान्य अभाववान् इत्यर्थः अभाववान् इत्युक्ते वायुः स्पर्शवत्वं स्पर्श एव अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागौ वर्तेते विषये अस्मिन् किञ्चित् विचार्यते
हा एतावत् तत्र गन्धवती पृथिवी अथवा गन्धवत्वं पृथिव्याः लक्षणम् इति अथवा तत्र शीतस्पर्शवत्वं जलस्य लक्षणं तत्र सर्वत्र एकमेव पदमासीत् खलु एकमेव तत्र लक्षणवाक्ये एकमेव पदम् आसीत् तत्र गन्धवत्वम् अथवा शीतस्पर्शवत्वम् इति एव आसीत् किन्तु इदानीम् अत्र किमस्ति
रूपरहितस्पर्शवान् वायुः
अतः तत्र भागद्वयम् अस्ति तत्र रूपरहितत्वम् अपि अस्ति स्पर्शवत्वम् अपि अस्ति अतः तत्र दलद्वयम् इति वदामः तत्र दलद्वयं नाम एकमस्ति रूपरहितत्वम् अन्यत् अस्ति स्पर्शवत्वम् अतः तत्र अथवा तत्र रूपरहितत्वे सति नाम रूपरहितत्वे सति नाम
लक्षणं
नाम तत्र सति इत्युक्ते सति सप्तमी नाम यदा यदा तत्र रूपरहितत्वम् अस्ति यदा रूपरहितत्वम् अस्ति अपि तत्र स्पर्शवत्वमपि अस्ति चेत् तदा एव तस्मिन् सन्दर्भे वयं जानीमः तत्र वायुः अस्ति इति अतः तत्र तत्र द्वयमपि भवेत् तत्र रूपरहितत्वे सति स्पर्शवत्वं नाम द्वयमपि भवेत् इति वायोः लक्षणं वाक्यम् अतः तत्र धलद्वयमस्ति धलद्वयमस्ति चेत् तत्र विशेषणद्वयं वा अथवा तत्र तादृशचिन्तनमपि भवितुमर्हति तत्र किमर्थं द्वयं द्वयोः अपि तत्र आवश्यकता अस्ति न वा, उपयोगः कः इति प्रश्नः भवति. अतः तत्र नाम तत्र स्पर्शवान् वायुः किमर्थं न वदामः, अथवा रूपरहितः वायुः इति किमर्थं न वदामः, किमर्थं रूपरहितः स्पर्शवान् वायुः इति वदामः इति प्रश्नः इति इदानीं तत्र प्रश्नः उद्घाटितः. अस्तु, तत्र केवलम् अग्रिमपरिच्छेदम् एकवारं पठामः, किन्तु अग्रिमे वर्गे तस्य चिन्तनं कुर्मः तत्र. तर्हि धन्यवादः भगिनी. तर्हि तत्र अनिता भगिनी अग्रिमे अग्रिमं परिच्छेदम् एकवारं पठति वा? प्रायश तस्य चिन्तनम् अद्य न कर्तुं शक्नुमः, किन्तु एकवारं पठामः.
कश्चित् सखायं गृहसङ्केतं पृच्छति. उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति सम्यक् एव. ग्रहणसौकर्याय समीपस्थं किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तम् अपि कदा वदति चेत् न दोषः. परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते तत् वक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति. अतः वक्ता बोधनीयं यत् वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धि आवश्यकः धर्म निर्देष्टव्यः. परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्ध अयं संव्यवहारः. किं वा शास्त्रीये पिचलक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादी उपन्यस्येत् पराभवयोग्यः भवेत्.
अतः तत्र केवलं तत्र इदानीं तत्र प्रश्नः उद्घाटितः अस्ति, नाम तत्र
यत् आवश्यकमस्ति तस्मिन् विषये एव वक्तव्यम् इति.
हा, यत् यत् आवश्यकं नास्ति तद् यदि भवति चेत् तत्र परिहास्यं तत्र भवति, तत्र जनाः परिहसन्ति. अतः तत्र
भ्रमः अपि भवति.
अतः तत्र प्रश्नः इदानीं तत्र रूपरहितः स्पर्शवान् इति तत्र पदद्वयस्य उपयोगेन एव लक्षणवाक्यं भवति वा इति तत्र केषां मनसि भवेत्. तत्र किमर्थम् इति तत्र अप्रयोजकम् अस्ति वा अनावश्यकम् अस्ति वा इति तेषां चिन्तनं भवेत्. अतः तत्र यदि तत्र दलद्वयम् अस्ति चेत् तत्र तेषां तत्र अथवा तस्य सार्थक्यं नाम तत्र तस्य आवश्यकता अस्ति इति प्रदर्शनीयम् अस्ति. तत्र गन्धवत्वम् इति पृथिव्याः लक्षणम् इति अस्ति चेत् अस्तु, गन्धवत्वं यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवी अपि, यत्र यत्र पृथिवी तत्र तत्र गन्धवत्वम् इति तत्र कोऽपि प्रश्नः न उदेति. किन्तु अत्र रूपरहितरहितत्वे सति तत्र स्पर्शवत्वम् इति वायोः लक्षणम् इत्युक्ते तत्र किमर्थम् एतादृशं वर्णनं वदति इति प्रश्नः भवति. अतः
वायुः रूपरहितः अपि अस्ति, वायुः स्पर्शवान् अपि अस्ति, द्वयि दले विभागौ अस्ति, तत् आवश्यकता का इति.
हा इति, हा, तस्य आवश्यकता का इति प्रश्नः उद्घाटितः अस्ति. इदानीं तत्र उत्तरं किम् इति अग्रिमे वर्गे द्रक्ष्यामः. अस्तु, समीचीनं, धन्यवादाः, अग्रिमे वर्गे मिलामः. नमस्कारः,
धन्यवादः महोदय.
धन्यवादः, नमस्कारः. तत्र नवरात्रि सर्वेषां कृते.